किमुश्रेष्ठः किञ्जभिष्ठो न आजगन् किमीयते दोत्या अङ्कद्यदूचिम न निन्दिम च मसंयो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमोदिम एकम् च मसम् चतुरः कृणोत न तद्वो देवा अब्रुवन्तद्वागमम् सौधन्वनाय देवा करिष्यथ साकम् देवैर्यज्ञिजासो भविष्यथ अग्निन्दोतम् प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वाः धेनुः कर्त्वा आजुभशा कर्त्वा द्वातानि भ्रातरनुभः कृत्व्येमसि चक्रवाम् सर्भवस्तदपृच्छदक्वेदभोद्यस्य दूतो न आजगन् यदा वाख्यच्चमसाम् चतुरः कृतानादित्वष्टाग्नास्वन्तर्न्यानजे हनामैनाम् इति त्वष्टा यदब्रवीच्चमसंये देवपानमनिन्दिषुः अन्यानामानि कृण्वते सुते स चाम् अन्यैरेनान् कन्यानामभिस्परत इन्द्रो हरेजयुजे अश्विनारथम् बृहस्पतिर्विश्वरूपामुपाजत रभुर्विभावाजो देवाम् अगच्छत स्वपसो जिज्ञिजम् भागमयीतन निश्चर्मणो गामरिणीतधीतिभिर्याजरन्ताजुभशादाकृणोतन सौधन्वना अश्वादश्वमतक्षतयुक्त्वा रथमुपदेवाम् अजातन इदमुदकम् पिबतेत्यब्रवीदरेदम् वाघ पिबतामुञ्जने जनम् सौधन्वना यदि तन्ने बहर्यथ तृतीजे घासवने मादजाध्वै आपो भोजिष्ठा इत्येको अब्रवीदग्निर्भोजिष्ठ इत्यन्यो अब्रवीत् वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद्रता वदन्तश्च मसाम् अपिंशत श्रोणामेक उदकम् गामवाजति माम् समेकः पिंशति सोनजाभृतम् आनिम्रुचशकृदे को अपाभरत् किम् स्वित्पुत्रेभ्यः पितरा उपावतुः उद्वत्स्वस्मा अकृणोतनातृणम् निवत्स्वपस्वपस्य जानरः अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानुगच्छथ सम्मील्य यद्भुवना पर्यसर्पदक्व स्वित्तात्या पितरा व आसतुः अशपतयः करस्तम् व आददेजः प्राब्रवीत् प्रोतस्मा अब्रवीतन सुषुप्वाम् सर्भवस्तदपृच्छता गोह्यक इदन्नो अबोबुधत् श्वानम् भस्तो बोधजितारमब्रवीत् संवत्सर इदमद्याव्यख्यत दिवायान्तिमरुतो भूम्याग्निरजम् वातो अन्तरिक्षेण जाति अद्भिरजाति वरुणः समुद्रैर्युष्माम् इच्छन्तः शवसो न पातः